एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली वर्तमान सर्वकारात् देश विकासस्य आकांक्षां विश्वासं च कर्तुम् अनुरुणद्धि। फिनिक्स महाविद्यालयेन युनिवर्सल महाविद्यालयेन च ह्य काष्ठमण्डपे आयोजितम् एतत् ख्रीष्टवर्षीयं काष्ठमण्डप युव सम्मेलनं सम्बोधयन् तत्र सहभागिभि युवभि पृष्ठान् प्रश्नान् उत्तरयन् च प्रधानमन्त्री ओली वर्तमान सर्वकारेण किमपि करिष्यते, परिवर्तनम् अनिवार्येण आनयिष्यते इति च संकल्पेन कार्यं विधीयमानमस्ति इति असूचयत्। प्रधानमन्त्री ओली युवानः देश निर्माणस्य सम्पूर्ण शक्तिरस्तीति हेतोः अनुकूल वातावरणे सति विदेशेषु विद्यमानाः नेपाली युवानः अपि स्वदेशं प्रत्यागमिष्यन्तीति विश्वासं व्यक्तवान्। युवभ्यः स्वदेशे एव शिक्षायाः वृत्त्युपार्जनस्य च प्रदानाय सर्वकारः प्रयासरतोऽस्तीति भाषमाणः प्रधानमन्त्री ओली सर्वकारेण प्रथमचरणस्य कार्यक्रमाः प्रारब्धाः सन्ति। नैजक्षेत्रेणापि दशसहस्राणि वृत्त्युपार्जनानि स्रक्ष्यमाणानि सन्तीति असूचयत्। तदवसरे प्रधानमन्त्री ओली सामाजिक विकृतेः अन्ताय प्रत्येकं व्यक्त्या समाजेन च आचरणयुक्तेन भाव्यमिति बलं प्रादात्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः दाङ्ग जनपदस्य नेतारः, सांसदः, स्थानीयस्तराणां जनप्रतिनिधयः, नैजक्षेत्रस्य प्रतिनिधयश्च तुलसीपुरवर्तिनी टरीगाउँ विमानस्थलस्य स्तरोन्नतये, जनपदस्य समग्राय, आर्थिकाय, भौतिकाय च विकासाय पूर्वेद्यु ध्यानाकर्षणं विदधु। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य सम्भूते मेलने नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः, सांसद उद्दीपक गिरी, मेनका पोखरेल, केन्द्रीय सदस्य घनश्याम पाण्डेय, तुलसीपुर उपमहानगरपालिकायाः प्रमुखः टीकाराम खड्का चेत्यादयो नेतारः उपस्थिताः आसन्। ध्यानाकर्षणपत्रं गृह्णन् प्रधानमन्त्री ओली विमानस्थलस्य स्तरोन्नत्या सहैव लमहि घोराहि तुलसीपुर मार्गस्य विस्ताराय सर्वकारेण ध्यानं प्रदीयते इति प्रतिबद्धताम् अभिव्यनक्। मध्यपर्वतीय लोकमार्गान्तर्गतस्य सिन्धुली जनपदस्य गोलन्जोर ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य कुडुले स्थाने जीपयानं सुनकोशी नद्यां निपतितं सत् जनत्रयं विलुप्तं वर्तते। ह्य सायं खोटाङ जनपदात् आगच्छत् हाइलेक्स जीपयानं सिन्धुली जनपदस्य गोलन्जोर ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य कुडुले स्थाने अनियन्त्रितं सत् नद्यां पतित्वा त्रयो जनाः विलुप्ताः सन्ति। जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी उपरीक्षकस्य गोविन्द राज काफले इत्यस्य अनुसारेण दुर्घटनायां भक्तपुरस्य सूर्य विनायक नगरपालिकायाः द्वात्रिंशत् वर्षीय अविन बके, त्रिंशत् वर्षीय प्रणीत स्यागु, सप्तत्रिंशत् वर्षीय बलराम घटुआ च विलुप्ताः सन्ति, यानि चत्वारो जनाः आरूढा आसन्। कपिलवस्तु जनपदस्य बाणगंगा नगरपालिकायाः अष्टमौडा क्षेत्रस्य ढोडेकोल स्थाने नद्यां निमज्य द्वौ जनौ मृतौ स्तः। मृतयोः षोडश वर्षीय प्रतीक भण्डारी, पञ्चदश वर्षीय सरोज सापकोटा च वर्तेते इति प्रहरिणा ज्ञापितम् अस्ति। नेपालस्य आकस्मिक भ्रमणाय आगताय भारतस्य युव क्रीडा राज्यमन्त्रिणे रक्षा निखिल खड्स इत्यस्मै तनहु जनपदस्य आबु खैरेनी ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य ऐनापहरा स्थाने भारतीय यात्रीवाहक बसयानस्य दुरापन्ना दुर्घटनातः जातायाः क्षतेः उद्धार कार्यस्य, आहतानां जनानाम् उपचारस्य च विषयः सुरक्षानिकायस्य अधिकारिभि ज्ञापितो वर्तते। गृहमन्त्रिणः रमेश लेखकस्य उपस्थितौ गृहमन्त्रालये सुरक्षानिकायानाम् अधिकारिभिः दुर्घटनायाः विषये ह्यः भारतीय राज्यमन्त्री विज्ञापितोऽस्ति। तदवसरे गृहमन्त्री लेखकः दुर्घटनायाः विषयस्य आत्मनि संसूचनस्य अनुपदमेव यथासम्भवं शीघ्रम् उद्धारं कृत्वा आहताः जनाः चिकित्सालयं प्रापिताः आसन्निति अज्ञापयत्। तदवसरे भारतीय राज्यमन्त्री खड्से नेपाल सर्वकारेण उद्धारात् उपचारं यावत् विहितेषु कार्येषु विहितं कुशलं व्यवस्थापनं प्रति आभारम् अभिव्यज्य उद्धार कार्य संलग्नेभ्य सुरक्षाकर्मिभ्य स्वास्थ्यकर्मिभ्यश्च धन्यवादं व्यक्तवान्। तत्पूर्वं गृहमन्त्रिणा लेखकेन राज्यमन्त्रिणा खड्से इत्यनेन च त्रिभुवन विश्वविद्यालय श्री महाराजगंज वर्थिनी शिक्षण चिकित्सालय उपचार रतानाम षोडशानाम आहतानाम जनानाम अवस्थायाः विषयः ज्ञातः आसीत्। आहतेषु त्रयाणाम जनानाम सघनोपचार कक्षे अन्येषाम सामान्य कक्षे च उपचारः जायमानो वर्तते। अत्रान्तरे बसयान दुर्घटनायां त्यक्त प्राणानां 27 भारतीय यात्रिणां शवः भरतपुर चिकित्सालये परीक्षणस्य पश्चात् भारतं प्रेषिताः सन्ति। भारतीय सेनायाः विशेष विमानेन मृतकेषु 25 शवः महाराष्ट्रं, अन्यत् शवद्वयं स्थलमार्गेण उत्तरप्रदेशस्य गोरखपुरं प्रेषितमस्तीति चितवन जनपदस्य प्रमुख जनपदाधिकारी इन्द्रदेव यादवः असूचयत्। उपप्रधान नगरीय विकास मंत्री प्रकाशमान सिंह निगदति देशस्य गौरवभूतायाः बागवती नद्या संरक्षणाय स्वच्छीकरणाय स्वस्व क्षेत्रात् सर्वैः सहयोगः करणीयः। ह्यः ललितपुरे महाजलयात्रायाः समापन कार्यक्रमे मंत्री सिंह नगराणां विकासः तीव्ररूपेण जायमानोऽस्ति, बागवत्यां नद्याम् अस्य प्रभावः आपतितश्च वर्तते इत्यतः तस्य समाधानाय सर्वैः चिन्तनीयम् इत्यभाषत। बागवती नद्याः स्वच्छीकरणाय संरक्षणाय च संलग्नैः संस्थाभिः अभियन्तृभिश्च सह सहकार्याय मन्त्रालयः तत्परोऽस्ति इति मन्त्री सिंह अगदत्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई विश्वविद्यालयेषु जायमाना अराजकता सोढुं न शक्यते इति स्पष्टयति। ह्यः भरतपुर विमानस्थले संचारकर्मीभिः सह मन्त्री भट्टराई विश्वविद्यालयेषु दृश्यमानान् एतादृशान् गतिविधिन् नियन्त्रयितुम् आवश्यकता अस्ति इति अभाषत। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी भाषते पुरातात्विकानाम् ऐतिहासिकानां च सम्पदां संरक्षण पुरस्सरं सन्ततिभ्यः हस्तान्तरणम् अस्माकं दायित्वं वर्तते। भक्तपुर विकास सहयोग संघस्य 30वीं वार्षिक साधारण सभां 30वीं खोप्रिंग सम्मान कार्यक्रमञ्च ह्यः सम्बोधयन्ती पूर्व राष्ट्रपतिः भण्डारी मूर्ताभि अमूर्ताभि च कलाभि सम्पदाभिश्च सुशोभितं सांस्कृतिक रूपेण संरक्षितस्य भक्तपुरस्य ऐतिहासिक प्रासाद क्षेत्रस्य अत्रत्य सांस्कृतिक सम्पदाञ्च कारणेन भक्तपुरं जीवितं नगरमिव परिचितमस्ति इति प्रावोचत्। नैरन्तरेण शिक्षायाः कृते पुस्तकालयः इति समाघोषेण अस्यैव भाद्रमासस्य 15 दिवसे 17 राष्ट्रिय पुस्तकालय दिवसः समायोक्ष्यमाणो वर्तते। गतश्रावणस्य 21 दिवसे शिक्षा विज्ञान प्रविधि मन्त्रालयस्य सचिवस्तरीयेण उपवेशेन नैरन्तरेण शिक्षायाः कृते पुस्तकालयः इति समाघोषेण 17 राष्ट्रिय पुस्तकालय दिवसं समायोजयितुं निर्णीतं वर्तते। पुस्तकालयानां माध्यमेन ज्ञानशिल्पयोः सूचना प्राप्तिश्च प्रवृत्तेः प्रवर्धनाय सामुदायिक भावना समाविष्टं सहभागितामूलं कार्यक्रमम् आयोज्य भव्यरूपेण दिवसममुं समायोजयितुं मन्त्रालयेन सर्वे सार्वजनिक सामुदायिक पुस्तकालयाः अनुरुद्धा वर्तन्ते। नेकपा एकीकृत समाजवादी दलेन केन्द्रीय पदाधिकारिणां प्रचयनाय केन्द्रीय समितेः पूर्णोपवेश अद्य आहूतो वर्तते इति समाचारः।